सर्वेषां स्वागतम्. वयम् इदानीं प्रार्थनां कृत्वा आरम्भं कुर्मः. ओके, वि विल् डु द प्रार्थना रैट् नौ. अस्तु. ॐ सहनाभवतु सह वीर्यङ्करवावहै
विनावधीतमस्तु
मा विद्विषावहै. ॐ शान्ति
शान्तिः.
सो somebody said विषावहैः, विषावहैः एव. ओके, अत्र विसर्गः नास्ति. देर् इस् नो विसर्ग हियर्. विद्विषावहै लैक् देट्. ओके, सो ऐ सी ए कपल् आफ़् चाट्स्. नेट्वर्क् प्राब्लम् अगेन्. ओके, अस्तु. अस्तु, अत्र जननी जन्मभूमिश्च स्वर्गादपि गरीयसि. जननी मदर्, जन्मभूमि मदर्लैण्ड् च इस् एण्ड् स्वर्गात् अपि ग्रेटर् देन् हेवन् गरीयसि. गरीयसि ग्रेटर् स्वर्गात् अपि देन् हेवन् इति अस्ति. अस्तु, सुभाषितम्. सो डू यू गैस् सिङ्ग् द साङ्ग् आर् नो? सुरस सुबोध विश्वमनोज्ञ ललिता हृद्या रमणीय. So here is a link, you can listen to it later. Astha. So all of you know this, kalo mama nama, bhavatah nama, bhavatyah nama iti, correct? Astha. Vrikshaha, akaranta pullingah, pustakam akarant napumsakalingapadam. Akarant napumsakalingapadam. Balika akarant strilingapadam. Nadi ikarant strilingapadam. Astu. Asti iti vayam vadamaha chet, it is present here iti. Atra asti. तत्र अस्ति. अस्तु, अत्र किम् अस्ति, कुत्र अस्ति इति पश्यामः. पर्वतः कुत्र अस्ति? अस्तु, अहम् इदानीं नाम लिखामि. नाम लिखित्वा एक प्रश्नं पृच्छामि. अस्तु, एकनिमिषम्. के सन्ति अत्र? श्रीधर् महोदय अस्ति, अजित् दास् अस्ति, कृष्णमहोदय अस्ति, सुजना अस्ति, राहुल् महोदय, सुजना भगिनी, राहुल् महोदय. प्रथमं श्रीधर् महोदय, पर्वतः कुत्र अस्ति?
पर्वतः तत्र अस्ति.
उत्तमं, पर्वतः तत्र अस्ति. क्षेत्रं कुत्र अस्ति? क्षेत्रम् इत्युक्ते फील्ड्. क्षेत्रं कुत्र अस्ति?
क्षेत्रं तत्र अस्ति.
क्षेत्रं तत्र अस्ति. अस्तु, अजित् दास् महोदय, शकटः कुत्र अस्ति?
शकटः अत्र अस्ति.
अत्र शकटः अत्र अस्ति. चक्रम्
अत्र अस्ति.
चक्रम् अत्र अस्ति, अत्र अस्ति. सूर्यः कुत्र अस्ति, सूर्यः कुत्र अस्ति,
सूर्यः अन्यत्र अस्ति,
सूर्यप्रकाशः
सर्वत्र,
सूर्यप्रकाशः सर्वत्र अस्ति,
सर्वत्र
अस्ति. अत्र न पश्यामः, वि कनाट् सी पश्यामः, वि कनाट् सी. अस्तु अस्तु. वृद्धा अस्ति वा, अस्ति वा वृद्धा, कुत्र अस्ति, कुत्र अस्ति
वृद्धा, अस्ति वृद्धा, तत्र अस्ति.
वृद्धा वृद्धा चित्रे नास्ति खलु, चित्रे वृद्धा नास्ति, वृद्धा नास्ति. सो देर् इस् नो वृद्धा इन् द पिक्चर, वृद्धा इन् द पिक्चर. वृद्धा अन्यत्र, अन्यत्र. नदी कुत्र अस्ति, कुत्र अस्ति
नदी, अन्यत्र अस्ति.
उत्तम, उत्तम. सो विच् एवर् इस् नास्ति विषये अन्यत्र, विषये अन्यत्र. नदी अन्यत्र, नदी अन्यत्र अस्ति. वृक्षः कुत्र अस्ति, वृक्षः कुत्र अस्ति. अस्तु अस्तु, सुजना भगिनी
धन्यवादः,
धन्यवादः महोदय.
आम्
वृक्षः कुत्र अस्ति, वृक्षः अत्र अस्ति, वृक्षः अत्र अस्ति. अस्तु, वृक्षः अत्र अस्ति. विमानं कुत्र अस्ति,
विमानम् अन्यत्र अस्ति.
उत्तमं, विमानम् अन्यत्र अस्ति. अस्तु, रोहन् महोदय, ऐ मीन् राहुल् खलु, राहुल्, राहुल् महोदय. राहुल् महोदय, पुरुषः कुत्र अस्ति, सो वेन् ऐ से पुरुषः ऐ मीन् मेन्, पुरुषः कुत्र अस्ति,
पुरुषः
अत्र अस्ति वा, तत्र अस्ति वा, अन्यत्र अस्ति वा, सर्वत्र अस्ति वा,
कुत्र अस्ति, अन्यत्र अस्ति,
अन्यत्र अस्ति. पुरुषः अन्यत्र अस्ति. अस्तु, पर्वतः कुत्र अस्ति, पर्वतः मीन्स् मौण्टेन्, पर्वतः कुत्र अस्ति,
पर्वतः तत्र अस्ति,
तत्र अस्ति. उत्तमम्. आकाशः कुत्र अस्ति,
आकाशः सर्वत्र अस्ति.
उत्तमम्. आकाशः सर्वत्र अस्ति. अस्तु, वायुः कुत्र अस्ति, श्रीधर् महोदय, वायुः कुत्र अस्ति,
वायुः सर्वत्र अस्ति,
वायुः सर्वत्र अस्ति. उत्तमम्. अजित् दास् महोदय, देवः कुत्र अस्ति,
देवः सर्वत्र अस्ति,
देवः सर्वत्र, सर्वत्र अस्ति. इफ् यु से देव, इफ् यु से देव, देन् सर्वत्र सन्ति, सन्ति. सो वी हावन्ट् लर्न् बहुवचन, वी हावन्ट् लर्न् बहुवचन. देवः अत्र, सर्वत्र अस्ति, सर्वत्र अस्ति. अस्तु, सो अग्रे अग्रे गच्छामः, अग्रे गच्छामः. अत्र अपि एकनिमिषं पठामः. अस्तु, कृष्णमहोदय, वृत्तिः कुत्र अस्ति, वृत्तिः इत्युक्ते फेन्स्,
वृत्तिः, वृत्तिः अत्र अस्ति,
वृत्तिः अत्र अस्ति, एण्ड् वृत्तिः
सर्व, वृत्तिः
अत्र अस्ति, वृत्तिः अत्र अस्ति, तत्र अपि अस्ति, अपि, वि केन् से अपि, अपि मीन्स् आल्सो. वृत्तिः अत्र अस्ति, वृत्तिः तत्र अपि अस्ति. तत्र अपि अस्ति. उत्तम. अस्तु, सुजना भगिनी, वानरः कुत्र अस्ति?
वानरः अत्र अस्ति.
वानरः अत्र अस्ति. राहुल महोदय, गृहं कुत्र अस्ति? गृहं, हौस्.
गृहं तत्र अस्ति.
गृहं तत्र अस्ति. अस्तु, सर्वे जानन्ति इति अहं चिन्तयामि. अस्तु, उदाहरणार्थं वयं भवत्याः नाम किम् इति वदाम. इति प्रश्नः अस्ति चेत् मम नाम राधिका इति अहं वदामि, अथवा अहं राधिका अपि अहं वदामि. अहं राधिका, मम नाम राधिका, अहं राधिका. ओके, सो अत्र प्रश्नः अस्ति अहं का इति. स्त्रीलिङ्गे प्रश्नः का. अहं का? अहं राधिका. अहं राधिका. हौ विल् यु आस्क् फार् अ मेल्? कः? कः? अहं कः? अहं मोहनः. अहं मोहनः. हौ विल् यु आस्क् हु आर् यु फार् अ मेल्? भवान् कः?
भवान् कः?
भवान् कः? भवान् कः? भवान् कः? भवान् कः? And he will answer with the name or other things. With the name or other things. Yeah, so for me, I will say, Aham Radhika, Aham Mahila, Aham Amba, Aham Patni, अहं शिक्षिका, अहं छात्रा, अहं न्यूयार्क् वासी. ऐ केन् से सो मेनि थिङ्ग्स् अबौट् मी. ओके, अवगतम्? द सेम् वे ए मेन् केन् से सो मेनि थिङ्ग्स् अबौट् हिम्सेल्फ्. अहं पुरुषः, अहं मोहनः, अहं जनकः, अहं पतिः, अहं तन्त्रज्ञः, इञ्जिनियर्. अहं सेवकः, ऐ एम् अ वर्कर्. अहम् अर्चकः. सो अत्र प्रश्नः इस् कः फार् अ पुल्लिङ्ग, ऐ एम् का फार् स्त्रीलिङ्ग. इफ् ऐ एम् आस्किङ्ग् मै सेल्फ् ऐ से अहं का. इफ् ऐ एम् आस्किङ्ग् सम्बडि एल्स् भवती का अथवा भवान् कः. भवान् कः अथवा भवती का. इदानीं पश्यामः. Somebody asked her, भवती का? And she says, अहं सन्ध्या. Instead of saying, मम नाम सन्ध्या. What is the difference between मम and अहम्?
अहम् is उत्तमपुरुषम्.
अहम् is like I. अहम्. Aham is I. What does mama mean?
Mama means my name.
Okay, this is a very, very important distinction. I versus my. So if I just say so I, if I just say I, aham chatura, aham bharatiya, aham sambhavi like that. But if I say my, I have to add some other word to go with it. Okay, I'm getting an echo from somebody's line. Bahu dhanyavada mohdi. So you unmute, speak and go back to mute. Okay, dhanyavada. So when I say my, I have to attach some other word with it. Because my, it shows sambandha. It shows a connection. Like mama nama, mama griham, mama ankani, mama pustakam, mama putraha, मम कार्यानं मम गृहं मम नगरं but for aham it's not like that aham will stand by itself okay that is also another very important point you have to note astu aham sandhya aham mahila aham chatura aham bharatiya aham sakhi aham vaidya okay so I'm going to ask the only girl here sujana bhagini bhavati ka
aham sujana aham balika
balika uttama
aham
aham chatra uttama aham chatura
aham Detroit
nagare vasami uttamam Detroit nagare vasami aham uttamam how old are you bagini
10
wow uttamam uttamam
dhanyavadah
uttamam astu Now we go for the male point, okay? So, aham govindah, aham purushah, aham kriyashilah, aham videshiyah, aham mitram, aham pachakah. Okay? So, note the word mitram here. It is a napunsakalinga padam. But it is generally used to indicate a male friend. But it can also be used for a female also. But in general, it is used for a male friend. Aham Govindah Purushah Kriyashilah. I am active. So, Atra, she said, Aham Chatura. So, for a male, how will it change? Remember, for pullinga, chaturaha, uttamam, chaturaha. So here, she said, aham bharatiya. How will it change for a male?
Bharatiyaha.
Bharatiyaha. So, he said, aham videshiyah. How will it change for a female?
Videshiyah.
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 Videshiyah. Uttama. Astu. Aham pachakah. This is a little bit different. So, I'll tell you. It is pachika. Pachika. So for Vaidya, she said, Aham Vaidya. How will it change for a male?
Vaidya.
Vaidya.
Vaidya. Astu. Sridhar Mahodaya. Idani Vadati. Sridhar Mahodaya Vadatu. Bhavan Kaha.
Aham Sridharaha. Aham Swideshiyaha. Aham Mitram, Aham Dallas Nagare Vasami. Aham
it's okay Mahodaya, Paryaptam, Dhanyavadah, Astu. Ajit Das Mahodaya, Bhavan Vadatu.
Aham. अजित् दास् अहं पुरुषः अहं मित्रम् अहं भारतीयः अहं चेन्नै पम्मल् नगरे वसामि
चेन्नै नगरे वसामि. उत्तमं महोदय. अस्तु कृष्णमहोदय, धन्यवादः महोदय.
अहं कृष्णः, अहं पुरुषः, अहं वृद्धः, अहं बेङ्गलूर् नगरे वसामि, अहं क्रियाशीलः, क्रियाशीलः, अहं वीरः, अहं चतुरः.
उत्तमं महोदय.
Thank you.
उत्तमं, बहु धन्यवादः. अस्तु राहुल् महोदय, भवान् कः?
अहं राहुलः, पुरुषः.
पुरुषः, उत्तमम्.
अहं छत्रः.
चतुरः, उत्तमम्.
अहं सान् होसे नगरे वसामि.
उत्तमम्. उत्तमं महोदय, धन्यवादः. अस्तु अग्रे गच्छामः. भेदः जानाति महोदय, वदतु.
How do you say student?
छात्रः.
छात्रः,
छात्रः, धन्यवादः. अस्तु अस्तु. सो नौ देर् आर् मोर् एक्साम्पल्स्. सो अत्र दे इण्ट्रोड्यूस् देम्सेल्स्, दे स्पोक् अबौट् देम्सेल्स्, रैट्? अहम् 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 अहम्. सपोसिङ्ग् ऐ वाण्ट् टु टाक् अबौट् हर्, कथं वदामः वयम्? सा, इफ् यु आर् टाकिङ्ग् अबौट् हर् सेल्फ़्, रैट्? अबौट् हर् सम्बडि एल्स्. सा सन्ध्या, उत्तमम्. सा महिला, सा चतुरा, सा भारतीया, सा सखी, सा वैद्या. हौ विल् वि टाक् अबौट् हिम्?
सः.
सः, सः गोविन्दः, सः पुरुषः, सः क्रियाशीलः, सः मित्रम्, सः विदेशीयः, सः पाचकः. सपोसिङ्ग् ऐ एम् टेलिङ्ग् टु सन्ध्या, ऐ एम् टाकिङ्ग् टु सन्ध्या, हौ विल् ऐ से? भवती, उत्तमम्. भवती सन्ध्या, भवती महिला. हौ विल् ऐ टाक् अबौट् टु हिम्? टु गोविन्द, भवान्, भवान्, भवान् गोविन्दः, भवान् पुरुषः. उत्तम, भवान्. सो अत्र दे आर् टाकिङ्ग् टु ईच् अदर्. सो ही इस् टेलिङ्ग् हर्, भवती राधा, भवती बालिका, भवती बुद्धिमती, भवती छात्रा. नौ शी इस् टाक् नौ ऐ एम् सारी ऐ थाट् ही इस् टाकिङ्ग् टु हर्. नौ दिस् लेडी इस् टाकिङ्ग् टु द बाय्, टु द बाय्. ओके, नाट् अबौट् द बाय् बट् टु द बाय्. भवान् शिवः. How will he say, I am? How will he say, I am Shivah?
Aham. Aham.
Aham Shivah. How will we say, he is Shivah?
Saha
Shivah. Saha Shivah. Okay, so these are the three points. Saha Shivah, we learnt it before. Saha. अहं शिवः, ही इस् टाकिङ्ग् अबौट् हिम्सेल्फ्. भवान् शिवः, वि आर् टाकिङ्ग् टु हिम् डैरेक्ट्लि. ओके, अण्ड् सपोसिङ्ग् ऐ वाण्ट् टु से योर् नेम् इस् शिव, हौ विल् ऐ से?
भवान् शिवः,
भवान् नाम शिवः.
भवान् इस् यु आर् शिव.
भवान् नाम,
भवान् नाम इस् हौ विल् आस्क्, वाट् इस् योर् नेम्?
भवान् भवान् नाम कः भवान् कः भवान् नाम कः
भवान् सी दैट्स अ डिफरेंस यस इट कैनॉट बी द सेम कलो भवान् शिवः हाउ विल यू आस्क अ पर्सन व्हाट इज योर नेम फॉर अ स्त्री
भवत्याः नाम किम्
For a female, we say bhavatyah namakim. For a male, how do you say bhavatah?
Bhavatah namakim.
Bhavatah namakim. Okay, this is a very, very important distinction again. Just like how I said I and my. Mama nama Radhika. Aham Radhika. I am Radhika. My name is Radhika. Okay, there is a difference. Hello. Same way, Bhavan Shivaha, Bhavataha Nama Shivaha. Avagatam, very, very important distinction. Bhavan Shivaha, Bhavataha Nama Shivaha. Why do we say Bhavataha Nama Kim? When do we use kim? When do we use kaha? When do we use ka?
Kim means neutral, napumsakalinga.
Napumsakalinga. Uttamam. Napumsakalingam. So, nama is a napumsakalinga padam. Oh. Bhavataha nama kim. Okay. Bhavataha nama kim. So, nama napumsakalinga padam. Ataha bhavataha nama kim. But when I change it to Bhavan, I say Bhavan Kaha. Why?
Bhavan Kaha means it is directly a Pullinga. Pullinga.
Pullinga. So Bhavan is a Pullinga Padam. Even though it ends in in Bhavan, okay, it is a Pullinga Padam. Bhavan. Bhavan Kaha. And for Bhavati, what will be the question?
Ka.
Ka. Why ka? Why ka?
Because Sri Lingam.
Sri Lingam. Okay. Okay. So we have three questions. Kalo. Kim, Kaha, and Ka. Kim for Napumsakalinga Padam. Bhavataha Nama Kim. Bhavan Kaha. Pullinga. Bhavati ka strilinga. Okay. So, the ka, the kim and the kaha, it is based on the noun we are talking about. Okay. All right. So, do you guys know the difference between aham and mama? Okay. I would like each one of you to show me that you know. And then I will move forward. Astu, Sridhar Mahodaya. So you either say aham and mama or bhavar or bhavataha, something. We have Gayatri Bhagini also. Swagatam Gayatri Bhagini. So, Sridhar Mahodaya, I'll give you an example of what to say. Aham Mahila, Mama Nama Radhika. Aham Mama. Atava Mama Pustakam. Mama Pustakam Atra Asti. Aham Chatra.
Mama. मम नाम श्रीधरः
उत्तमम् मम नाम श्रीधरः अहं संस्कृतं पठामि अहम् अण्ड् मम स्पष्टं वेरि क्लियर् उत्तमम् अजित् दास् महोदय यु केन् से अहम् और् भवती और् भवान् संथिङ्ग् उत्तमं वदतु
मम नाम अजित् दासः अहं गृहं निवसामि
गृहे वसामि उत्तमं मम अण्ड् अहम् उत्तमम् कृष्णमहोदय
अहं कृष्णः मम नाम कृष्णः
मम नाम एव नामः न
मम नाम कृष्णः
उत्तम
अहं बेङ्गलूर् नगरे वसामि
उत्तमम्
अहं संस्कृतं पठामि मम पुस्तकं टेबल् मम
उत्पीठिकायाम् मम पुस्तकम् अत्र अस्ति धन्यवादः महोदय सुजना भगिनी
मम नाम सुजना अहं क्षीरं पिबामि
चाक्लेट् क्षीरं पिबामि उत्तमं मम नाम एण्ड् अहम् उत्तमम् उत्तमं सुजना भगिनी उत्तमम् धन्यवादः स्वागतं राहुल् राहुल् महोदय
मम नाम राहुलः अहं छात्र
उत्तमम् अहं छात्रः उत्तमं मम नाम एण्ड् अहम् उत्तमम् गायत्री भगिनी
नमस्कारः
नमस्कारं भगिनी
मम नाम गायत्री अहं संस्कृतं पठामि
उत्तमम् अहम् एण्ड् मम नाम ओके उत्तमम् डू यू आल्सो नो द डिस्टेन्स् बिट्वीन् भवती एण्ड् भवत्याः इट्स् द सेम् कान्सेप्ट् सेम् कान्सेप्ट् भवती छात्रा भवत्याः पुस्तकम् अत्र अस्ति भवान् छात्रः भवतः किं पाठशाला अन्यत्र अस्ति भवान् अण्ड् भवतः ओके सो केन् यु स्टार्ट् वित् एदर् भवती और् भवान् विल् डू द सेम् थिङ्ग् अगेन् श्रीधर् महोदय भवान् और् भवती
भवान्
सो ऐ शो यु द ऐ शो यु द एक्साम्पल्स् भवान्
भवान् नाम किं
भवतः नाम किम्
भवतः नाम किं भवान् शिवः
उत्तमम् उत्तमम् भवतः नाम किं भवान् शिवः ओ यु केन् आल्सो से भवान् शिवः भवतः नाम शिवः ओके वेरि गुड् भवान् शिवः भवतः नाम किम् उत्तमम् अजित् दास् महोदय
भवतः नाम किं मम नाम अजित् दास्
मम नाम अजित्
भवान् अजित् दास्
भवान्
अजित् दास्
उत्तमम् कृष्णमहोदय यु केन् से भवान् और् भवती
भवती नाम किं
भवत्याः नाम किं
भवत्याः नाम किं भवत्याः सीता
भवती सीता
भवती सीता भवती सीता भवती अम्बिका
अवगतं वा महोदय अहं चिन्तयामि किञ्चित् कन्फ्यूशन् अस्ति इति सो वेन् यु से भवती सो यु केन् ट्रै ट्रान्स्लेटिङ्ग् इन् योर् mother tongue. Okay? Okay. Like you are and you are something.
Okay.
You are a girl.
Oh.
Bhavati balika. Ni. Ni versus unnudaya. So you speak Tamil, correct?
Correct.
So it is ni mahila. Ni bharatiya. Ni is bhavati.
Ni is bhavati.
Bhavati. Ni chatura. You are clever. Ni. When you say bhavatyaha, unnudaya. Unnudaya payar. Bhavatyaha. Okay? This is a very important. I'll give you another turn. Okay? We'll go and come back to you. Sujana.
Bhavan kaha. Bhavan anyatra asti.
Bhavan anyatra asti. Can you make a sentence with the bhavataha also?
Bhavataha kutra asti.
That is bhavan. Bhavan kutra asti. Bhavan kutra asti. So when you say bhavataha, you have to add some other noun with it. Like Bhagini, for example, Bhavan Kutra Asti, where are you? Supposing you want to know where is your car, how will you ask where is your car?
Bhavataha.
Karyanam.
Karyanam Kutra Asti.
Uttamam. Bhavataha karyanam kutra asti. Where are you? Where is your car? Bhavan kutra asti. Bhavataha karyanam kutra asti. Okay? Very, very important to know this distinction. Uttamam bhagini. Astu. Rahul Mahodaya. Rahul Mahodaya?
Bhavatya Namakim.
Bhavatyah Namakim.
Bhavati Aishwarya.
Uttamam. Bhavati Aishwarya. You are Aishwarya. What is your name? So whenever you say your, you add something to it, right? Your car, your name, your house, your sister, your brother. Uttamam. Astu. Gayatri Bhagini. Vadatu Bhagini. Bhavati Bhavatyah Atava Bhavan Bhavatah.
Bhavati. Bhavatah nama kim? Bhavati Radha.
So can you keep the gender the same, Bhagini?
Okay.
Either Bhavan and Bhavatah or Bhavati and Bhavatyah. Utta.
Okay.
Punaha vadatu.
Bhavatyah nama kim? Bhavati Balika.
Uttamam. Bhavati Balika. Bhavatyah nama kim? Uttamam. Astu. Who wants to try again?
I will try.
Uttamam. Nama vadatu mahadaya?
Krishnan.
Uttamam.
Bhavatyah nama kim? Bhavatah nama krishnah.
Bhavatah nama krishnah, bhavatyah nama kim. Okay, can you tell me? Vadatu.
मम भवती कारवाणम् अत्र अस्ति.
भवत्याः कार्यानम्.
भवत्याः भवत्याः कारवाणम् अत्र अस्ति.
कार्यानम्
अत्र अस्ति. भवतः कार्यानम् अत्र अस्ति. भवतः गृहं भवतः गृहं तत्र अस्ति.
How will you say you are a doctor, where is your office?
भवतः कार्यालयः तत्र अस्ति. अहं वैद्यः. अहं वैद्यः. भवतः
न न न अहं न. यु आर् अ डाक्टर्.
भवत्याः वैद्यः.
न भवत्याः न.
भवतः वैद्यः.
भवतः अपि न.
भवान् वैद्यः.
दिस् इस् वेरि इम्पोर्टेण्ट् महोदय. भवान् वैद्यः. यु आर् अ डाक्टर्. सो यु इस् भवान् आर् भवति. रिमेम्बर् दट्. भवान् आर् भवति. यु युर् इस् भवतः आर् भवत्याः. सेम् वे अहम् इस् ऐ. My is what? How do you say my?
Mama.
Mama. Remember that. Aham goes along with mama. Aham chatra, mama pustakam atra asti. Remember that. Aham, mama. So, I would suggest you keep some standard sentences. So, you will go to it. Like, Aham Radhika, Mama Nama Radhika. Aham Radhika, Mama Nama Radhika. For a male, Aham Vijayaha, Mama Nama Vijayaha. Very simple sentence, but it gives a lot of meaning. Eva, similarly, Bhavan Vijayaha, Bhavataha, Nama Vijayah. Simple sentence, but it will tell you a lot of things. Bhavan Vijayah. Bhavataha Nama Vijayah. Bhavati Vijayah. Bhavatyaha Nama Vijayah. Avagatam. Atava. Bhavati Vijayah. Bhavatyaha Pustakam. Or something. Which you want to remember that by. Okay? Very, very important. We make a lot of mistakes in this. Okay? Asta. Agre gacha mahava. Any questions? Prashna ha asti va?
Yes. Can I try?
Uttama bagi.
Can I do it again?
Yes, yes.
Okay. Bhavati Sandhya. भवत्याः नियुक्ति वैद्या.
भवत्याः नियुक्ति वैद्या वा?
आम्.
उत्तमम्.
धन्यवादः.
स्वागतं भगिनि. एनिबडि एल्स् वाण्ट् टु ट्रै? वदतु. वदतु महोदय.
भवान् नाम किं?
नो भवान् नाम किं? नो
यु आर् भवान् वैद्यः.
भवान् वैद्यः. यु आर् अ डाक्टर्. अस्तु. भवान् वैद्यः.
भवत्याः भवत्या का कः? भवत्याः कः?
नो हु आर् यु? वाट् इस् यु?
भवत्याः भवत्याः
युवर्
भवत्याः वैद्यः
न महोदय
भवत्याः वैद्यः करेक्ट्
नो 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 इट्स् नाट् करेक्ट् सो इफ् यु वाण्ट् टु ट्रान्स्लेट् यू आर् अ डाक्टर् हौ विल् यू से यू आर् अ डाक्टर्
भवान् वैद्यः
भवान् वैद्यः सो यु पुट् इट् अवे भवान् वैद्यः युवर् वेर् इस् युवर् वाट्
कार्
वदतु हौ विल् यु आस्क् वेर् इस् युवर् कार्
भवत्याः
भवतः
भवत्याः कार् वाहनम् अस्ति
भवतः रैट् फार् पुल्लिङ्ग इस् भवतः भवतः नाम किं भवतः भवत्याः फार् फीमेल् भवत्याः नाम किम् ओके फार् फीमेल् यु से भवत्याः नाम किं फार् अ मेल् यु से भवतः नाम किं
भवत्याः कार् अस्ति दट् ऐ केन् आस्क् फार् दि फार् मै फीमेल् कौण्टर् पार्ट्
Yeah, you say, भवत्याः कार्यानम् अत्र अस्ति और् कुत्र अस्ति
कुत्र अस्ति भवत्याः कार् वाहनम् अत्र अस्ति
अत्र अस्ति भवत्याः ओके रिमेम्बर् दट् भवती भवत्याः भवान् भवतः अहं मम
ओके क्लियर्
ओके सो एव्रिथिङ्ग् डिपेण्ड्स् आन् द लिङ्ग ओके भवान् भवतः भवान् कः भवत्याः संथिङ्ग् कुत्र अस्ति भवती का भवत्याः संथिङ्ग् कुत्र अस्ति अथवा अत्र अस्ति ओके अग्रे गच्छामः वा
भवान् वी से यू दट् इस् फार् अ मेल्
भवतः मीन्स् संथिङ्ग् रिलेटेड् टु यु सम्बन्ध संथिङ्ग् एण्ड् यु आर् रिलेटेड्
रिलेटेड्
सम्बन्ध
भवान् मीन्स् इट् इस् डैरेक्ट् डैरेक्ट् यु
यु भवान् इस् यु
भवान् इस् यु
भवान् अत्र अस्ति यु आर् हियर् Bhavataha means the next word, whatever I'm saying, the next word is, that is going to be related to you. Bhavataha nama. No, Bhavan Vaidyaha.
Bhavan Vaidyaha, Bhavataha nama kim?
Bhavataha nama kim? Bhavan Vaidyaha. Bhavataha pustakam, Bhavataha patni, Bhavataha putraha. अस्तु अग्रे किम् अस्ति गीतम् अस्ति अस्तु अहम् एकनिमिषम् अन्य Okay, I'll go to the next. Astu. So we come to this one now. Ekanimisham. Present. Ramah. Eshah kah? Eshah kah?
Eshah Ramah.
Eshah Ramah. If I want to say sah kah?
Sah
Ramah. If I want to ask, if I want to tell him, you are Rama, how will I say?
Bhavan Ramah.
Bhavan Ramah. Did everybody understand that?
Yes.
Yes. Okay, is there anybody who did not understand that? Asso, because this is all the foundation. We have to lay a very, very strong foundation. Otherwise, you will get lost. Asso. Ramah. Ramaha asti. Astu. We understand that. Ramaha atra asti. Dhanuhu asti. Dhanuhu. Okay. Bo. Dhanuhu asti. So here, the bow belongs to Rama. So we say Ramasya Dhanuhu. Okay. Ramasya Dhanuhu. So we add a new one. Sya. Like how we said Bhavataha and Bhavatyaha. When we are talking to somebody. Okay. Bhavataha. So I can say, Hey Rama, Bhavataha Dhanuhu. Bhavataha Kiritam. Bhavataha Mala. Bhavataha Abharanam. Kantabharanam. Bhavataha Lalataha. Bhavataha Netram. Okay, understand? Now we are talking about Rama. So we say Ramasya Dhanuhu. Avagatam, if you don't understand, stop me. No chet, I'm going ahead. Ramasya Banaha. Banaha arrow. Ramasya Banaha. Here they wrote Dhanuhu, but it is actually Banaha. Eshaha Krishnaha. So this is possessive. It shows sambandha. Krishnaha asti va. Aam. Krishnaha asti. Venuhu asti va. Asti va, you know that, right? Asti va. Aam. Venuhu. Flute. Venuhu. We also say murali. Asti va. Murali asti va. Aam. Murali asti. Venuhu asti. So, how will you say this is Krishna's Venuhu? Krishna, Krishna. Krishna's Venuhu. So, the question is, whose Venuhu? So, we say Kasya. Kasya Venuhu? Krishnasya Venuhu. Kasya Venuhu? Krishnasya Venuhu. Okay? In this example. Kasya Dhanuhu? Astu. I'll ask one by one. Sridhar Mahodaya. Kasya Dhanuhu?
Ramasya Dhanuhu.
Ramasya Dhanuhu. Kasya Kiritam?
Ramasya Kiritam.
Ramasya Kiritam. Uttama Mahodaya. Dhanyavadaha. Ajit Das Mahodaya. Astu. Now I want you to ask the question. Ask the question. About the Banaha. About the Banaha. Whose Banaha?
Kasya Banaha.
Kasya Banaha.
Rama's Banaha.
Ramasya Banaha.
Ramasya Banaha.
Ramasya Banaha.
So the Ramas will become Ramasya. Uttama. Dhanyavada Mahodaya. Dhanyavada Mahodaya. Krishna Mahodaya. Astu. So, can you pick something from here and ask whose and then say Rama's, like Mala or Abharanam or Netram, yes. Nasika? Vadatu. Yes.
Kasya Mala, Rama's Kasya Mala.
Kasya Mala. Kasya Mala. Kasya Mala.
Because Mala is this one, feminine. Kasya Mala.
No, because Ramaha is Pullinga, it is Kasya.
Oh, right.
Kasya, Ramasya. So, Atra, Kasya Venuhu.
कृष्णस्य वेणुः
कृष्णस्य वेणुः सेम् थिङ्ग् अप्लैस् हियर् कस्य माला रामस्य माला
कस्य धनुः रामस्य धनुः
उत्तमं
रामस्य बाणः कस्य
क्रीडः
रामस्य कस्य क्रीडं रामस्य क्रीडं
रामस्य क्रीडम् अस्तु सुजना भगिनी सुजना धन्यवादः कृष्णमहोदय नौ वी डू द सेम् थिङ्ग् फार् कृष्ण so can you ask who's kiritam who's venuho
kasya kiritam kasya venuho
kasya venuho uttamam can you say krishna's kiritam krishnasya
किरीटम् कृष्णस्य वेणुः
उत्तमम् उत्तमं भगिनि उत्तमम् उत्तमम् अस्तु राहुल् महोदय
धन्यवादः
धन्यवादः भगिनि स्वागतम्
आम्
केन् यु आस्क् हूस् ज्युवेलरि आभरणम् अण्ड् देन् वस्त्रम् अण्ड् गिव् दि आन्सर् आभरणं कस्य आभरणम् उत्तमं
कृष्णस्य आभरणम्
उत्तमं कस्य आभरणं कृष्णस्य आभरणम् उत्तमम् उत्तमं महोदय गायत्री भगिनी सो फार् द पीकॉक फेदर इस् ए बर्हः Can you ask who's Varghah, Krishna's Varghah?
Kasya Varghah, Krishna'sya Varghah.
Uttamam. Kasya Varghah, Varghah.
Varghah, Varghah.
Krishna'sya Varghah.
Krishna'sya Varghah.
Okay. Now we are going to add some more things from what we learnt before. Okay? कृष्णस्य पत्नी का ओके वै डि वि से पत्नी का वै डि वि से का
फीमेल्
उत्तमं फीमेल् स्त्रीलिङ्ग पत्नी इस् फीमेल् देर्फोर् इट् इस् का कृष्णस्य पत्नी का कृष्णस्य पत्नी का
कृष्णस्य पत्नी रुक्मिणः
रुक्मिणी रुक्मिणी कृष्णस्य पत्नी रुक्मिणी उत्तमम् अस्तु अत्र रामस्य पत्नी का
रामस्य पत्नी सीता
उत्तमं सीता श्रीधर महोदय हौ विल् यु आस्क् हू इस् रामस् फादर् जनकः द नेम् इस् जनकः महोदय श्रीधर् महोदय अस्ति वा
रामस्य जनकः कः
उत्तमं कः रामस्य जनकः कः वै डिड् यु चेञ्ज् इट् टु कः नाट् क
फादर् पुल्लिङ्गः
पुल्लिङ्गः उत्तमम् ओके एव्रिबडि प्लीस् फालो दिस् ओके रामस्य जनकः कः बिकास् इट् इस् पुल्लिङ्ग वाट् इस् पुल्लिङ्ग जनकः इस् पुल्लिङ्ग उत्तमं सो उत्तरं वदतु महोदय गिव् मि दि आन्सर् रामस्य
दशरथः रामस्य जनकः
उत्तमम् अथवा रामस्य जनकः दशरथः रामस्य जनकः दशरथः उत्तमं अजित् दास् महोदय रामस्य अम्बा हौ विल् कम्प्लीट् द क्वश्चन्
रामस्य अम्बा का रामस्य अम्बा सुमित्र
कौसल्या रामस्य अम्बा कौसल्या
रामस्य अम्बा कौसल्या
कृष्णा महोदय हौ विल् यु आस् दशरथस् वैफ् हू इस् दशरथस् वैफ्
दशरथः पत्नी
दशरथस्य सो इफ् यु जस्ट् से दशरथः
दशरथस्य पत्नी का
उत्तमं दशरथस्य पत्नी का आन्सर्
दशरथस्य पत्नी कौसल्या
उत्तम दशरथस्य पत्नी कौसल्या अस्तु सुजना भगिनी सुजना हौ विल् यु आस्क् हू इस् दशरथस् वैफ् हि हास् त्री वैफ्स् रैट् सो विल् ट्रै टु मेन्शन् आल् त्री हौ विल् यु आस्क् हू इस् दशरथस् वैफ्
दशरथस्य
दशरथस्य पत्नी उत्तमं दशरथस्य पत्नी का
दशरथस्य पत्नी
सो वी केन् से वन् बै वन् दशरथस्य पत्नी कौसल्या दशरथस्य पत्नी सुमित्रा दशरथस्य पत्नी कैकेयी ओके त्री थिङ्ग्स् ओके वि गो टु पुत्रः ओके धन्यवादः भगिनि स्वागतं राहुल् महोदय हू इस् दशरथ सन् हौ विल् यु आस् दशरथ सन्
दशरथस्य
दशरथस्य सो वाट् हेपन्स् इस् रामः रैट् नो ऐ जस्ट् वाण्ट् पायिण्ट् औट् संथिङ्ग् रामः सो यु से द होल् वर्ड् राम अण्ड् देन् एड् द स्य द सेम् वे दशरथः सो यु से अप् टु दशरथ अण्ड् देन् एड् द स्य दशरथस्य उत्तम
दशरथस्य पुत्रः
कः कः दशरथस्य पुत्रः कः एण्ड् वाट् विल् बि दि आन्सर् दशरथस्य
दशरथस्य पुत्रः
रामः ओके सो इन् वदतु दशरथस्य पुत्रः रामः सो एज़् यु केन् टेल् द एण्डिङ्ग् गेट्स् मोडिफैड् वेन् एवर् वि वाण्ट् टु चेञ्ज् संथिङ्ग्स् सो द एण्डिङ्ग् इस् वेरि इम्पार्टेण्ट् यु हेव् टु से रामः दशरथस्य अथवा रामस्य इफ् ऐ जस्ट् से रामः धनुः इट् डजन्ट् मेक् एनी सेन्स् बट् इफ् ऐ से रामस्य धनुः What am I saying? The Dhanuhu belongs to Rama. So I'm showing a relationship between Rama and Dhanuhu. So I'm saying this Dhanuhu belongs to Rama. Ramasya Dhanuhu. Ramasya Banaha. So if I just say Rama, Ramaha Banaha, I'm not saying anything. I'm just saying Ramaha Dhanuhu, Ramaha Dhanuhu Banaha, Pustakam, Karyanam, like that. Nothing. I'm not showing any connection. So if you want to show a connection, you have to say Ramasya Dhanuhu. Like Bhavataha na Bhavataha Pustakam. I cannot say Bhavan Pustakam. Bhavan Nama. I'm not saying anything. I'm not expressing anything. Avagatam. Very, very, very important lesson. Ramasya Bhavataha Bhavatyaha Krishnasya. And when we say Patni Ka, Putraha Kaha, like that. Asto. Ramaha, the Visarga disappears. Ramasya. Ramasya. Vrikshaha. Visarga disappears. Vrikshasya. Purushaha. How will you change it?
Purushasya.
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 Uttamam. Balakaha. Balakaha.
Balakahasya.
Balakasya. There is no visarga there. There is no visarga there. See, the visarga disappears. Let me just... See, vrikshaha, vrikshaha.
Vrikshasya.
The heart is gone now. Vrikshasya.
Balakaha, balakasya.
Balakasya. Krishakasya. Krishakasya. Sainikaha. Okay, can I ask one by one? Rahul Mahodaya. Yes. Sainikaha. Shigram, shigram vadatu. Sainikaha.
Sainikasya.
Sainikasya. Arakshakaha. Arakshakaha.
Arakshakasya.
Vaidyaha.
Vaidyasya.
Vaidyasya. Uttama. Gayatri Bhagini. Chitrakaraha.
Chitrakarasya.
Uttama. Bharavahaha.
Bharavahasyaha.
Punaha vadato.
Bharavahasya.
Uttamam. Charmakaraha.
Charmakarasya.
Punaha vadato.
Charmakarasya.
There is no ha in the end, okay? Tantragnyaha. Tantragnyaha.
Tantra.
Tantragnyasya. This is a nya. Tantragnyasya. Uttama. Sridhar Mahodaya. Karmakaraha.
Karmakarasya.
Uttama. So I'm just going to go forward. Ajit Mahodaya. Nartakaha.
Nartakasya.
Lipikaraha.
Lipikarasya.
Okay, I'm going forward. Krishna Mahodaya. Krishna Mahodaya.
Yes.
Nataha.
Natasya.
Punaha vadatu. Nataha.
Natasya.
नटस्य धीवरः
धीवरस्य
उत्तमम् सुवर्णकारः
स्वर्णकारस्य
उत्तमम् अस्तु सुजना भगिनी आपणिकः
आपणिकस्य
उत्तमम् विक्रयिकः विक्रयिकः
विक्रयिकः
उत्तमम् ग्राहकः
ग्राहकस्य
उत्तमम् अस्तु अग्रे गच्छामि सो दिस् इस् द सेम् थिङ्ग् धन्यवादः स्वागतम् गोपालकः गोपालकस्य इत्यादि सो नौ वि केन् शो सम्बन्ध टु शो द कनेक्षन् बिट्वीन् टू नौन्स् रामस्य कन्दुकः गोपालकस्य गृहम् ओके सो वि विल् स्टार्ट् वित् राहुल् राहुल् महोदय गणेशः मूषकः
गणेशस्य मूषकः
उत्तमं गणेशस्य मूषकः उत्तमं स्कन्दः मयूरः
स्कन्दस्य मयूरः
उत्तम गायत्री भगिनी श्लोकः छन्दः
श्लोकस्य छन्दः श्लोकः
श्लोकः छन्दः हौ विल् यू शो द कनेक्षन्
श्लोकस्य छन्दः
उत्तमं श्लोकस्य छन्दः उत्तमं पुनः वृक्षः बिलम्
वृक्षस्य बिलम्
उत्तमं वृक्षस्य बिलम् अस्तु श्रीधर् महोदय कामदेवः बाणः
कामदेवस्य बाणः
उत्तमम् अजित् महोदय अभिषेकः अभिषेकः अम्बा
अभिषेकस्य अम्बा
पुनः वदतु छात्रः लेखनी लेखनी
छात्रस्य लेखनी
उत्तमम् अस्तु अग्रे गच्छामि कृष्ण महोदय पुत्रः पुत्रः
पुत्रस्य पुत्रः
उत्तमम् सुजना भगिनी बालकः द्विचक्रिका
बालकस्य द्विचक्रिका
उत्तमं जनकः कारयानम्
जनकस्य कारयानम्
उत्तमम् अस्तु अग्रे गच्छामि धन्यवादः अस्तु सो नौ वि आर् शोयिङ्ग् त्री सम्बन्ध ओके नौ वि आर् बिकमिङ्ग् एक्स्पर्ट्स् Now we can do three. Rama's wife is Sita. Rama's wife is Sita. Okay, what's happening here? Okay, what's happening here? Astu. Astu. Atra. Rama'sya patni Sita. Iti asti. अस्तु श्रीधर् श्रीधर् महोदय कृष्णः पत्नी
रुक्मिणी
रुक्मिणी अस्तु अजित् महोदय ओबामा महोदय बिकास् बिकास् इफ् इट्स् अ फारिन् नेम् वी ऐड् महोदय
ओबामा महोदयस्य पत्नी
महोदय एतत् करोतु दशरथः
दशरथस्य पुत्रः रामः
उत्तमं दशरथस्य पुत्रः रामः उत्तमम् अस्तु धन्यवादः महोदय कृष्णमहोदय जनकः पुत्री मैथिली
जनकस्य पुत्री जनकस्य पुत्री मैथिली
उत्तमं जनकस्य पुत्री मैथिली सो दर् इस् अनदर् नेम् फार् मैथिली रैट् जनकस्य पुत्री
जानकी
उत्तमं जानकी अस्तु
अरविन्दस्य कार्यानम् अरविन्दस्य कार्यानं मर्सिडीस्
मर्सिडीस् अस्तु सुजना भगिनी स्कन्दः वाहनं मयूरः धन्यवादः महोदय
स्कन्दस्य वाहनं मयूरः
उत्तमं भगिनि धन्यवादः राहुल् महोदय नारायणः वाहनं गरुडः
नारायणस्य वाहनं गरुडः
गरुडः उत्तमं महोदय उत्तमं गायत्री भगिनी दशरथः पुत्रः रामः
दशरथस्य पुत्रः रामः
उत्तमं दशरथस्य पुत्रः रामः उत्तमम् अत्र सम्बन्ध अस्ति ओके सो वि केन् सो यु डू दिस् फार् होम्वर्क् अस्तु वा गृहपाठरूपेण कुर्वन्तु दशरथस्य पुत्रः रामः शिवस्य पुत्रः गणेशः पाण्डुराजस्य पुत्रः अर्जुनः ओके सो यु केन् डू दिस् फार् होम्वर्क् सेम् थिङ्ग् हियर् ओ वेट् सो नौ दि अदर् वे रामस्य इन्स्टेड् आफ् पिता यु केन् से जनकः आल्सो आर् पिता इस् ओके रामस्य पिता दशरथः गणेशस्य पिता शिवः बट् इफ् यु से जनकः or putraha who wants to do additional work you can do like this dasharathasya putrasya nama ramah okay you can make two sentences with each relationship dasharathasya putraha ramah or dasharathasya putrasya nama ramah avagata अवगतम् आर् नो
अवगतम्
ओके इस् देर् एनिबडि हू डिड् नाट् अण्डर्स्टाण्ड् ऐ विल् शो दि आपोसिट् वे राम् ऐ डु द बाटम् वन् कर्णस्य जनकः इन्स् आफ् पिता विसे जनकः कर्णस्य जनकः सूर्यः कर्णस्य जनकस्य नाम सूर्यः little bit more complicated but it will become clear in your mind okay same thing you do here instead of guru hu we say shikshakah shishyah shikshakah parashuramasya shishyasya namakarnah adava parashuramasya shishyah कर्णः परशुरामस्य शिष्यस्य नाम कर्णः लिटल् बिट् मोर् चालेञ्जिङ्ग् बट् इट् विल् बिकम् क्लियर् इन् युर् मैण्ड् इट्स् अप् टु यु वेदर् यु वाण्ट् टु डू इट् आर् नाट् सो केन् वि ट्रै वन् नौ श्रीधर् महोदय द्रोणाचार्यः
शिष्यः एकलव्यः द्रोणाचार्य शिष्यस्य नाम एकलव्यः
नाम न नाम एव पुनः वदतु द्रोणाचार्यस्य
शिष्यस्य शिष्यः एकलव्यः द्रोणाचार्यस्य शिष्यस्य नाम एकलव्यः
उत्तमं नाम एकलव्यः उत्तमम् अस्तु अजित् महोदय रामकृष्णः विवेकानन्दः
रामकृष्णस्य शिष्य रामकृष्णः शिष्य विवेकानन्दः
न न रामकृष्णस्य
रामकृष्णस्य शिष्य विवेकानन्दः
शिष्यः विवेक यसो महोदय यसो महोदय एंडिंग इज सो इंपॉर्टेंट सो इंपॉर्टेंट whether you keep okay. the visarga or here when you say the asya you, you don't keep the visarga keep the visarga
okay okay
okay okay punah punah vadatu mahodaya
ramakrishna shishya vivekanandah
na ramakrishnasya
शिष्यस्य नाम विवेकानन्दः
उत्तमं शिष्यस्य नाम विवेकानन्दः उत्तमं सो हौ विल् यु से दि आपोजिट्
विवेकानन्द गुरु रामकृष्णः
विवेकानन्दस्य गुरुः रामकृष्णः
विवेकानन्दस्य गुरुः रामकृष्णः विवेकानन्दस्य गुरुस्य नाम रामकृष्णः
So how will you say Vivekananda
Shishyasya
Shikshakah
Sorry, Guru Guru Vivekanandasya Guru Guruho Nama Ramakrishna
ha Ramakrishna ha Guru Nama Ramakrishna Astu
Dhanyavada
Krishna Mahodaya Dhanyavada Mahodaya Krishna Mahodaya
वसिष्ठस्य शिष्यः रामः वसिष्ठस्य शिष्यस्य नाम रामः
सो इन्स्टेड् ऑफ गुरुः वि कैन चेंज इट् टु शिक्षकः
रामः
रामस्य
गुरुः वसिष्ठः रामस्य गुरुः रामस्य गुरुः नाम वसिष्ठः
सो इफ यू से गुरुः इज से गुरोः गुरोः नाम वसिष्ठः
रामस्य गुरोः नाम वसिष्ठः
गुरोः नाम वसिष्ठः
वसिष्ठः shall I try one more
अस्तु वदतु
एकलव्य द्रोणाचार्यस्य शिष्यः एकलव्यः द्रोणाचार्यस्य शिष्यस्य नाम एकलव्यः एकलव्यः गुरुः एकलव्यस्य गुरुः द्रोणाचार्यः एकलव्यस्य गुरोः नाम द्रोणाचार्यः
गुरोः नाम द्रोणाचार्यः उत्तम ओके सो सुजना भगिनी धन्यवादः महोदय सुजना भगिनी दिस् इस् इन् संस्कृतं यु मे नाट् अण्डर्स्टाण्ड् खलु सो ऐ विल् गिव् यू ईजियर् वन् शिवः गणेशः
शिवस्य पुत्र गणेशः
पुत्रः गणेशः
गणेशस्य पिता शिवः
उत्तमम् उत्तमं भगिनि धन्यवादः अस्तु राहुल् महोदय
धन्यवादः
स्वागतं भगिनि
शिवस्य पुत्रः गणेशः
उत्तमम् How will you say Shiva's son's name is Ganeshah?
Shivasya
Putrasya Uttama Putrasya Uttama
Putrasya नाम गणेशः.
उत्तमम्. हौ विल् यु से दि आपोजिट् वे? इन्स्टेड् आफ् पिता विल् चेञ्ज् इट् टु जनकः.
गणेशः
गणेशस्य. डोण्ट् फर्गेट् द एण्डिङ्ग्, ओके? अदर्वैस् वि आर् नाट् शोयिङ्ग् एनी कनेक्षन्. गणेशस्य
गणेशस्य जनकः
जनकस्य. अदर्वैस् यु आर् नाट् शोयिङ्ग् कनेक्षन्.
जनकस्य नाम शिवः.
ओके. गणेशस्य शिव. गणेशस्य जनकः शिवः. सो यु आर् सेयिङ्ग् गणेशस् फादर्. गणेशस् अपोस्ट्रफी एस्. गणेशस् फादर् इस् शिव. बट् इफ् ऐ से गणेशस् फादर्स् नेम् इस् गणेशस्य जनकस्य नाम शिवः. So you understand why the sya is important? Without the sya, you are not showing a sambandha. You are not showing a connection. Shashti Vibhakti is all about connection. Possessive. They call it possessive, but it's actually showing connection. Sambandha. Sambandham suchayati. Astu. Gayatri Bhagini. पाण्डुराजः अर्जुनः.
पाण्डुराजस्य पुत्रः अर्जुनः. पाण्डुराजस्य पुत्रः नाम पुत्रस्य नाम अर्जुनः.
पुत्रस्य नाम. उत्तमं भगिनि. दि अदर् वे जनकः. इन् स्व पिता इसे जनकः. अर्जुनः
अर्जुनस्य जनक. जनकस्य नाम पाण्डुराजः.
उत्तमम्. उत्तमम्. सर्वे अवगच्छन्ति वा? Does anyone want to try again or you're okay? Okay, let's see what is next. Shashti Vibhakti. Okay. Okay. Are you ready? No, I don't want to start anything new. Okay. So we'll stop up to here. So what did we learn today? You were. How will you say you were for pullinga? I'll give you bhavan bhavatah. For strilinga,
bhavati bhavatyah.
Uttamam. Bhavati bhavatyah. Uttamam. Uttamam. So when you say I and my,
aham ma mama aham mama
aham mama
aham and mama
mama mama.
So whenever we say mama, we say mama mother word to it. Mama pustaka. Mama dham. Mama naam. Like that. Same thing with bhavata.
Same thing with bhavata.
Bhavata naam.
Bhavata naam.
Same thing with bhavatya.
With bhavatya.
Bhavatya karyanam. Like that.
Karyanam. Like that.
Okay. I'm getting okay. Echo. Please mute. Dhanyavada. Bahu dhanyavada. I don't know why this echo, but I think maybe you're using two instruments. And if you have two, So you can mute one of them, Mahodaya. Then the echo will not come, I think. You can try that. So you can remove the audio from the computer or something and then keep the audio only in the phone. Then this echo will not come, I think. So you can try that. Okay, so now Rama and Ramas. Rama is here. Rama's car is not, Rama's house is here. Ramah versus, how will you say Rama's house? Ramasya Griham. Okay. Same thing with Krishna and Krishnasya. And that is what we had learned today. So any questions? Astu. If you don't have any questions, we will conclude the class today. So if you have any questions, you can write in the WhatsApp group. Okay. Sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pasyantu, ma kaschid dukha bhavet. Om shanti shanti shanti, harih om sri gurubhyo namah, harih om. Dhanyavadah.
धन्यवादः
सर्वे जनाः सुखिनो भवन्तु धन्यवादः महोदय